भद्रन्नो अपिवादजमनो दक्षमदक्रतम् अधा ते सख्ये अन्धसो विवामदेरुडङ्गापोनजमसे विवक्षसे रजस्पृशस्त आसते विश्वेषु सोपधामसो अधा कामा इमे मम विवामदे वितिष्ठन् देवसो जमो विवक्षसे उतौ रतानि सोमदे प्राहम् विनामि भाग्या अधा अभिदेव सोरभे विभोमदे मृणानो अभिषिद्वधाद्विवक्षसे समप्रयन्ति धीतजः सर्गा सोमताम् इव क्रतन्नः सोमदीवसे विभोमदे धारजा चमसाम् इव विवक्षसे तपत्ये सो भशक्तिभर्निका मासो वृण्विरे गृत्सस्य धीरास्तवसो विभोमदे व्रजङ्गोमन्दमश्विनम् विवक्षसे पशुन्नः सोमरक्षसि पुरत्राविष्ठितम् जगत् समागृणोषि देवसे विभोमदे विश्वा सम्पश्यन् भुवना विवक्षसे त्वन्नः सोम विश्वतो गोपादाभ्यो भव सेधराजन्नपसृतो विभोमदेवानो दुःशंस ईषता विवक्षसे त्वन्नः सोम शुक्रदुर्वजोधेजा जजागृहि क्षेत्रवित्तरो मनुषा विभोमदे द्रुहो नः पाह्यम् हसो विवक्षसे त्वन्नो वृत्तहन्तमेन्द्रस्येन्दो शिवः सखा यत्सेम्हवन्ते समिथे विभोमदे युध्यमानास्तोकसादौ विवक्षसे अयम् घसतुरो मद इन्द्रस्य वर्धत प्रियः अयम् गक्षेपतो महो विभोमदे मदिम् विप्रस्य वर्धयद्विवक्षसे अयम् विप्रायदाशुषेवाजाङ्गियर्तिको मदः अयम् सप्तभ्यः परम् विभोमदे प्रान्धम् श्रोडञ्च दारिषद्विवक्षसे